अथ सप्तम स्कंध
अथ पंचदशोध्याय गृहस्थों के लिए मोक्ष धर्म का वर्णन। नारद वाच कर्म निष्ठा द्विजा के चित तपोनिष्ठा नृपा परे स्वाध्यायान्ये प्रवचने केचित् ज्ञान योगयोः ज्ञान निष्ठाय देयानि कव्यान्यानन्त्यमिच्छता दैवे च तद्भावे स्याद् इतरेभ्यो यथार्हतः। तौ द्वैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा भोजेत् सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम् देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च सम्यक् भवन्ति नैतानि विस्तरात् स्वजनार्पणात् देशे काले च सम्प्राप्ते मुन्यन्नम् हरिदैवतम् श्रद्धया विधिवत्पात्रे न्यस्तम् कामधुगक्षयम् देवर्षि पितृभूतेभ्य आत्मने स्वजनाय च अन्नम् संविभजन् पश्येत् सर्वम् तत्पुरुषात्मकम् न दद्यादामिषम् श्राद्धे न चाद्या धर्मतत्त्ववित् मुन्यन्ने हि स्यात् परा प्रीतिर्यथा न पशुहिंसया नैतादृशः परो धर्मो नृणाम् सद्धर्ममिच्छताम् न्यासो दण्डस्य भूतेषु मनो वाक्कायजस्य यः एके कर्म मयान् जज्ञान् ज्ञानिनो यज्ञवित्तमः आत्मसंयमने निहा जुह्वति ज्ञानदीपिते द्रव्यजज्ञैर्जक्ष्यमाणम् दृष्ट्वा भूतानि बिभ्यति एष मा करुणो हन्यातज्ञो ह्यसुतृध्रुवम् तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् सन्तुष्टो अहरः कुर्यान्नित्यनयमिति किः क्रिया विधर्मः परधर्मश्च आभास उपमा छलः अधर्मशाखः पञ्चेमा धर्मज्ञो अधर्मवत् त्यजेत् धर्मबाधो विधर्मः स्यात् परधर्मोऽन्यचोदितः उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिश्छलः जस्तिक्षया कृतः पुंभि राभासो ह्याश्रमात् पृथक् स्वभावविहितो धर्मः कस्य नष्टः प्रशान्तये धर्मार्थमपि नेहेत यात्रार्थं वा धनो धनम् अनीहानीहमानस्य महाहेरिव वृत्तिदा सन्तुष्टस्य निरीहस्य स्वात्मा रामस्य यत्सुखम् कुतस्तत्कामलोभेन धावतोऽर्थे हयादिशः सदा सन्तुष्टमनसः सर्वः सुखमयादिशः शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् सन्तुष्टः केन वा राजन्न वर्तेतापि वारिणा औपस्थजैव कार्पण्याद् गृहपालाय तेजनः असन्तुष्टस्य विप्रस्य तेजो विद्या तपोजसः श्रवतीन्द्रियलौलेन ज्ञानम् चैवावकीर्यते कामस्यान्तम् च क्षुत्रिर्भ्याम् क्रोधस्यैतत्फलोदयात् जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः पण्डिता बहवो राजन् बहुज्ञा संशयच्छिदः संशस्पतयोऽप्येके असन्तोषात् पतन्त्यधः असङ्कल्पात् जयेत् कामम् क्रोधम् कामविवर्जनात् अर्थानर्थेक्षया लोभम् भयम् तत्त्वावमर्शनात् आन्वीक्षिक्या शोकमोहौ दम्भम् महदुपाशया योगान्तरायान् मौनेन हिंसाम् कायाद्यनीहया कृपया भूतजम् दुःखम् दैवम् जह्यात् समाधिना आत्मजम् योगवीर्येण निद्राम् सत्त्वनिषेवया रजस्तमश्च सत्त्वेन सत्त्वम् चोपशमेन च एतत्सर्वम् गुरौ भक्त्या पुरुषो यञ्जसा जयेत् यस्य साक्षात् भगवति ज्ञानदीपप्रदे गुरौ मर्त्या सद्धि श्रुतम् तस्य सर्वम् कुञ्जरशौचवत् एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः योगेश्वरैर्विमिज्ञाङ्घ्रिर्लोकोऽयम् मन्यते नरम् सर्वर्गसंयमैकान्ता सर्वा नियमचोदनः तदन्ता यदि नो योगा आवहेयुः श्रमावहा यथा वार्तादयो ह्यर्थात् योगस्यार्थम् न बिभ्रति अनर्थाय भवेयुस्ते पूर्तमिष्टम् तथा सतः यश्चित्तविजये जत्त स्यान्निः सङ्गो परिग्रह एको विविक्तशरणो भिक्षुर्भिक्षामिताशनः देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः स्थिरं समं सुखं तस्मिन् आसीत् तर्ज्वंगम ओमिति। प्राणापानो सन्निरुध्यात् पूरकुम्भकरे च कहि, यावन् मनस्तजेत् कामान् स्वनाशाग्र निरीक्षणः, यतो यतो निःसरति मनः काम हतं भ्रमत्, ततस्तत उपाहृत्य हृदि रुन्ध्याच्छनैर्बुधः। एवमभ्यसतश्चित्तं कालेनाल्पीयसाजते, अनिशं तस्य निर्वाणं जात्यनिन्दनवहनिवत्, कामादिभिरनाबिद्धं प्रशान्ताखिलवृत्तिजत्, चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित्। यः प्रव्रज्य गृहात् पूर्वं तिर्वर्गावपनात् पुनः, यदि सेवेत तान् भिक्षु सवय वान्तास्य पत्रपः, यहि स्वदेह स्मृतो नात्मा मर्त्यो विक्रिमि भस्मसात्, त एनमात्मसात् कृत्वा श्लाघयन्ति ह्य सत्तमः। गृहस्थस्य क्रियात्यागो व्रतत्यागो बटोरपि, तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता, आश्रमाप्रसदा येते खल्वाश्रम विडम्बकः, देवमाया विमूढांस्तान् उपेक्षेतानुकम्पया, आत्मानं चेद्विजानीयात् परं ज्ञानधृताशयः, किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः। आहुः शरीरं रथमिन्द्रियाणि हयान्भिषोन्मन इन्द्रियेशम्, वर्त्मानि मात्राधिषणां च सूतम्, सत्त्वं बृहद्बन्धुरमीशश्रेष्ठम्। अक्षं दश प्राणमधर्मधर्मौ चक्रेऽभिमानं रथिनं च जीवम्, धनुर्हितस्य प्रणमं पठन्ति शरं तु जीवं परमेव लक्ष्यम्। रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः, मानोऽवमानो सूया च माया हिंसा च मत्सरः। रजः प्रमादः छुन्निद्रा शत्रवस्त्वेव मादयः, रजस्तमः प्रकृतयः सत्त्व प्रकृतयः क्वचित्। जावन्नृकाय रथमात्मवशोपकल्पम्, धत्ते गरिष्ठचरणार्चनया निशातम्, ज्ञानासिमच्युतबलो दधदस्तशत्रु, स्वाराज्यतुष्टौपशान्त इदम् विजह्यात्। नो चेत् प्रमत्तमसदिन्द्रियवाजिसूता नित्तोत्पथम् विषयदस्य सुनिक्षिपन्ति, ते दस्यवः सहयसूतममुन्तमुन्धे, संसारकूप उर्मृत्युभये क्षिपन्ति। प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम्, आवर्तेत प्रवृत्तेन निवृत्तेन श्नुते मृतम्। हिंस्रं द्रव्यमयं काम्यम् अग्निहोत्राद्य शान्तिदम्, दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः। एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च, पूर्तं सुरालया राम कूपा जिव्यादिलक्षणम्। द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः, अयनं दक्षिणं सोमो दर्श ओषधिभिरुधः। अन्नं रेत इति क्ष्मेष पितृयानं पुनर्भवः, एकैकस्येनानु पूर्वं भूत्वा भूत्वेह जायते। निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः, इन्द्रियेषु क्रियाजज्ञान् ज्ञानदीपेषु जुह्वति। इन्द्रियाणि मनस्युर्मौ वाचि वैकारिकं मनः, वाचं वर्णसमाम्नाये तमोङ्कारे स्वरे नेषेत्, ओङ्कारं बिन्दौ नादेत्तं तं तु प्राणो महत्यमुम्। अग्निः सूर्यो दिवा प्राण शुक्लो राकोत्तरां स्वराट्, विश्वश्च तैजसः प्राज्ञः तुर्ज आत्मा समन्वयात्। देवयानमिदं प्राहुर्भूत्वा भूत्वानु पूर्वशः, आत्मयाजुपशान्तात्मा ह्यात्मस्थो न निवर्तते। य एते पितृदेवानाम् अयने वेद निर्मिते, शास्त्रेण चक्षुषा वेद जनस्थोऽपि न मुह्यति। आदावन्ते जनानां सद्बहिरन्तः परावरम्, ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम्। अबाधितोऽपि ह्याभासो यथा वस्तुतया स्मृतः, दुर्घटत्वादेन्द्रियकम् तद्वदर्थ विकल्पितम् चित्त्यादिनाम् इहार्थानाम् छाया न कतमापि न संघातो विकारोऽपि न पृथङ्गान्वितो मृषा धातवो अवयित्वा च तन्मात्रावयवैर्विना न स्युर्ह्ये सत्यवयवी न्यसत्रवयवो ततः स्यात् सादृश्य भ्रमस्तावद् विकल्पे सति वस्तुनः जाग्रत स्वापो यथा स्वप्ने तथा विधिनिषेधता भावाद्वैतम् क्रियाद्वैतम् द्रव्याद्वैतम् तथात्मनः वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनते मुनिः कार्यकारण वस्त्वैक्यम् अर्षणम् पटुतम् तवत् अवस्तुत्वाद् विकल्पस्य भावाद्वैतम् तदुच्यते यदि ब्रह्मणि परे साक्षात् सर्वकर्म समर्पणम् मनोवाक्तनुभिः पार्थ क्रियाद्वैतम् तदुच्यते आत्मजायासुतादीनाम् अन्येषाम् सर्वदेहिनाम् यत्स्वार्थकामयोरैक्यम् द्रव्याद्वैतम् तदुच्यते यद्यस्य वा निषिद्धम् स्यात् येन यत्र यतो नृप स तेन हेतकर्माणि नरो नान्यैरनापदि एतैरन्यैश्च भेदोक्तैर्वर्तमानः स्वकर्मभिः गृहेऽप्यस्य गतिम् जायाद् राजंस्तद्भक्तिभाङ्नरः यथा हि जूयम् नृपदेव दुस्त्यजादापद्गणादुत्तरतात्मनः प्रभुः यत्पादपङ्के रुह सेवया भवान् आहारसि निर्जित् दिग्गजः क्रतुन् अहम् पुरा भवम् कश्चिद् गन्धर्व उपबर्हणः नाम्नातीते महाकल्पे गन्धर्वाणाम् सुसम्मतः रूपपेशलमाधुर्य सौगन्ध्या प्रियदर्शनः स्त्रीणाम् प्रियतमो नित्यम् मत्तस्तु पुरुलम्पटः एकदा देवसत्रे तु गन्धर्वाप्सरसाम् गणः उपहूता विश्वश्रीभिः हरिगाथोपगायने अहम् च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः ज्ञात्वा विश्वसृजस्तन्मे हेलनम् शेपुरोजसा या हि त्वम् शुद्रतामासु नष्टः श्रीकृतहेलनः तावद्दास्यामहम् जज्ञे तत्रापि ब्रह्मवादिनाम् शुश्रूषयानुसङ्गेण प्राप्तोऽहम् ब्रह्मपुत्रताम् धर्मस्ते गृहमे धियो वर्णितः पापनाशनः गृहस्थो येन पदवीम् अञ्जसा न्यासिनामियात् यूयम् नृलोके बत भूरिभागा लोकम् पुनानामुनयोऽभियन्ति येषाम् गृहाना वसतीति साक्षात् गूढम् परम् ब्रह्म मनुष्यलिङ्गम् स वा अयम् ब्रह्म महद्विमिर्ग्यम् कैवल्य निर्वाण सुखानुभूतिः प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृत् गुरुश्च न यस्य साक्षाद् भवपद्मजादिभिः रूपम् धिया वस्तुतयोपवर्णितम् मौनेन भक्त्योपशमेन पूजितः प्रसीदता मे सशसात्वताम् पतिः श्रीशुक उवाच इति देवर्षिणा प्रोक्तम् निशम्य भरतर्षभ पूजयामास सुप्रीतः कृष्णम् च प्रेमविह्वलः कृष्णपार्थौ उपामन्त्र्य पूजितः प्रेयौ मुनिः श्रुत्वा कृष्णम् परम् ब्रह्म पार्थः परमविस्मितः इति दाक्षायणीनान्ते पृथग् वंशः प्रकीर्तितः देवासुर्मनुष्याद्या लोका यत्र चराचरः इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसहस्रयाम् परमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादानुचरिते युधिष्ठिर नारद संवादे सदाचार निर्णयो नाम पञ्चदशोऽध्यायः इति सप्तमः स्कन्धः समाप्तः। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे।